नमस्ते। गतसप्ताहे चतुर्थीविभक्तेः उपस्थापनं चतुर्थीविभक्तेः उपस्थापनं कृतम्। अधुना तदेव अनुवर्तयामः वयं सर्वे अपि। आदौ अत्र कश्चन श्लोकः अस्ति कोऽपि कृपया पठतु।
काव्यं यशसे ऐ डोंट नो हौ टु रीड दट यस काइंड ऑफ अ सिंबल देयर
यशसे अर्थकृते
ओके यशसे अर्थकृते व्यवहार विदे
शिवेतरक्षतये
ओ शिवेतरक्षतये सद्यः परणी वृतये
महोदय क्षम्यतां नंदिनी भगिनी कैन गेट इन द क्लास
ओ क्षम्यताम् अस्तु ओके अस्तु अस्तु कांता एकनिमिषम् अत्र मम एव दोषः अस्ति पश्यामि एकनिमिषं तत् श्लोकः कः कांतासम्मिततयो उपदेशयुजे
उपदेशयुजे
अत्र विद्यमानानि सर्वाणि अपि पदानि चतुर्थी विभक्तौ सन्ति। अत्र किमर्थं काव्यं पठनीयम् अस्तु काव्यस्य प्रयोजनं किम् अत्र उच्यते। अस्तु काव्यं यशसे कविः काव्यं किमर्थं करोति यशसे करोति कीर्त्यै कीर्तिं प्राप्तुं कविः काव्यं करोति। केचन कवयः कीर्तिं प्राप्तुम् अस्तु कीर्तिं प्राप्तुम् अथवा यशसे कीर्त्यै काव्यं कुर्वन्ति नाम काव्यं लिखन्ति। अन्ये केचन सन्ति ते अर्थकृते अर्थकृत् अर्थकृते भवत् भवते अर्थकृत् अर्थकृते केचन कवयः अर्थकृते धनाय धनं प्राप्तुं काव्यं लिखन्ति। अस्तु एतावत् स्पष्टं वा?
कृते पट् ऐ डिडन्ट् गेट् इट्
अर्थकृत् धनाय इति अर्थः तत्र धनं प्राप्तुं अस्तु कवयः तथा कुर्वन्ति। जनाः किमर्थं पठन्ति? व्यवहारविदे व्यवहारं ज्ञातुं कथं व्यवहरणीयं। गुरुम् उपगच्छामः चेत् तत्र अस्माभिः कथं व्यवहरणीयम् एवं रीत्या ज्ञानाय काव्यं पठनीयमस्ति। उदाहरणाय यदा गुरुम् उपगच्छति कश्चन पुरुषः गुरोः समीपे तस्य सन्निधौ कथं व्यवहरणीयम् ज्ञानाय। वयं सर्वे अपि समाजे एव स्मः किल समाजे अस्माभिः कथं व्यवहरणीयं तद् ज्ञानाय। व्यवहारः नाम बिहेवियर् तद् व्यवहारज्ञानाय व्यवहारविदे तन्निमित्तं काव्यं पठनीयं। तथैव शिवेतरक्षतये शिवेतर शिवः नाम मङ्गलं शिवेतर मङ्गलात् भिन्नं नाम आपोजिट् आफ् मङ्गलम् एनिथिङ्ग् अदर् देन् मङ्गलम् इति अर्थः। शिवेतर शिवः नाम मङ्गलं शिवेतर तस्मात् भिन्नं किमपि शिवेतरक्षतिः क्षतिः नाम नाशः अमङ्गलस्य नाशनाय अमङ्गलस्य नाशनाय काव्यं पठनीयम् एतावता स्पष्टं वा
सो शिवेतर मीन्स् अपोसिट् आफ् शिवः मीन्स् मङ्गलं शिवेतर मीन्स् अमङ्गलम् इस्
यस्
ओके सो इस् दिस्
शिवेतरेतर मीन्स् शिव इतर अमङ्गलम् अमङ्गलात् भिन्नं पुनः मीन्स् शिवम् ओन्लि
ओके नेगेशन् आफ् नेगेशन् इस् पासिटिव् अगेन् minus 1 into minus 1. Yeah. Okay. Okay. So that itara is something that we can use in other areas also to indicate
oh, opposite. Anywhere. Sarvatra.
Okay. So like you are saying sarvatra, if I say sarvatra itra or sarvatra itra, it means
nowhere. No, no, no. Tathana. Shivahata padam, nama padam asti. Not with abhyams. You can say Rame tara janaha. Other than Rama, everyone else.
दक्षिणेतर मीन्स् एनिथिङ्ग् अदर् देन् सौत्
दक्षिणेतर
नाम कः अर्थः तत्र वाट् डु थिङ्क् इस् द मीनिङ्ग्
नाट् सौत् देट् मीन्स्
एनिथिङ्ग् अदर् देन् सौत् सत्यं तावदेव काव्यं पठनीयम् एतावता स्पष्टं वा
Yeah, that is fine. Can we just take a couple of more examples for itara? How do we use itara? Maybe
gavetara, anything other than gau, which is cow. Anything other than gau, gavetara.
Okay.
Tatha. Okay. So far good?
Okay, and also the earlier part that...
Parvetara lokaha. Now anything other than swarga.
Okay.
Okay.
Okay. Okay, so can I say I will go anywhere other than my house? Can I say...
गृहेतर प्रदेशं गच्छामि आम्
ओके गृहेतर प्रवेशं ओके फैन गॉट इट
गृहात् भिन्नं किमपि स्यात्
ओके ओके एंड शिवम सो इट बिकम शिवेतर गॉट इट ओके एंड दैट अर्थ कृते दैट एडिंग दैट ते थिंग इज इट एडिंग लाइक समथिंग लाइक अ फॉर और समथिंग
नो नो अर्थ कृते वै तथा नास्ति भवत् तत्र वर्कशीट दत्तं किल तत्र पश्यतु भवत् तकारान्त पदम् अस्ति चतुर्थी एकवचनं भवति अर्थकृत् अर्थकृते तावदेव स्पष्टम् एतावता
एकवारं प्रथमवाक्यं प्लीज् एक्स्प्लेन् दट् मीनिङ्ग् आफ् जस्ट् द फस्ट् सेण्टेन्स्
पुनः विवृणोतु
धन्यवादः
अस्तु काव्यं काव्यं यशसे काव्यपठनं वा काव्यलेखनं वा यशसे अधुना वदतु कोऽपि कश्चन पुरुषः अस्ति सः किं करोति भवन्तम् उपगम्य वदति अहं रघुवंशम् अथवा किरातार्जुनीयं तादृशकाव्यम् अपठम् इति झटिति किं भवति यु हेव् रेस्पेक्ट् फार् हिम् रैट् सो हि गेन् रेस्पेक्ट् बिकास् हि रेड् काव्यं सो काव्यं यशसे न केवलं पठनेन लेखनेन अपि यशः भवति काव्यं यशसे किमर्थं काव्यं पठनीयम् अथवा किमर्थं काव्यं लेखनीयं यशसे तथैव अर्थकृते अत्र केवलं प्रायः कविम् उद्दिश्य एव वदति ओके काव्यं किमर्थं लिखति कविः नाम अर्थकृते धनाय धनं प्राप्तुम् अथवा व्यवहारविदे कथं व्यवहरणीयं कुत्र कथं व्यवहरणीयम् इति ज्ञानाय व्यवहारविदे शिवेतरक्षतये अमङ्गलस्य नाशनाय एतावत् स्पष्टम्
यस् थैंक यू
अनन्तरम् अस्ति सद्यः नाम इमिडियट्लि अव्ययमस्ति पुनः सद्यः परनिर्वृतये निर्वृतये परनिर्वृतये नाम तत्र कः अर्थः अत्यन्तम् आनन्दाय अत्यन्तम् आनन्दं प्राप्तुम् పరమానందం. పరమానందం నామ కహర్త పరమానందం
బ్లిస్ హ్యాపీనెస్ ఎక్స్ట్రీమ్ హ్యాపీనెస్ ఆఫ్ బ్లిస్
ఎగ్జాక్ట్లీ పరనివృతయే తథైవ కాంతా సమ్మితతయో ఉపదేశయుజే. కావ్యం కాంత, కాంత నామ మహిళ, మహిళ వా భార్య వా యా కాపి భవతు అస్తు, తాదృశ ఉపదేశం కరోతి కావ్యం. వేదం మహారాజ, మహారాజ నామ భూభృత్ రాజా, రాజావత్ వేద వేద శాస్తి శాసనం కరోతి అస్తు, వేదాః శాసనం కుర్వంతి అస్తు. తథైవ పురాణ ఇతిహాసాదయః, పురాణ ఇతిహాసాదయః తే సర్వే మిత్రవత్, మిత్రం ఇవ తే బోధయంతి. కింతు కావ్యం కాంత, యథా కాంత బోధయతి, యథా భార్య అస్మాన్ బోధయతి, తథైవ కావ్యమపి బోధయతి. ఉపదేశయుజే కథం వ్యవహరణీయం, నమస్ బహు సరళతయా ఉపదేశం కరోతి కావ్యం ఇది అర్థ. స్పష్టం వా?
నో శేఖర్, ఐఎమ్ స్టిల్ ఫైండింగ్ ఇట్ హార్డ్ టు అండర్స్టాండ్ దిస్ నౌ. ఐఎమ్ సారీ ఇఫ్ ఐఎమ్ రిపీటింగ్ వాట్ యు ఎక్స్ప్లెయిన్డ్ ఎర్లియర్. ద సెకండ్ వర్డ్ పరనివృతయే,
పరనిర్వృతయే అత్ర అత్ర కిమర్థం ఇమం శ్లోకం అయం శ్లోక స్వీకృతం అస్తి నామ అత్ర సర్వాణి అప్పుడు పదాన్ని చతుర్థి విభక్తో సంతి అర్థకృతే యశసే వ్యవహార విదే శివేతరక్షతయే పరనిర్వృతయే సమ్మితతయోపదేశయుజే ఏతాని సర్వాణి అప్పుడు పదాన్ని చతుర్థి విభక్తో సంతి. అస్తు పరనిర్వృతయే ఆనందాయ ఆనందం ప్రాప్తుం కావ్యం పఠంతు. పరనివృతయే కావ్య పఠనేన కిమర్థం కావ్యం పఠతి, ప్రశ్న కహాత్ర కిమర్థం కావ్యం కావ్య పఠనం. ఆనందాయ కావ్య పఠనం, కిమర్థం కావ్యం పఠంతి నామ ఆనందాయ ఆనందం ప్రాప్తుం ఇది అర్థః.
ఓకే ఓకే, సో నిర్వృతయం మీన్స్ ఆనందం ఇస్ ఇట్?
నిర్వృతి, నిర్వృతి నామ ఆనంద ఇది అర్థ.
ఓకే ఓకే, అండ్ పర ఇస్ ఉపసర్గ,
పర నన పర ఎక్స్ట్రీమ్ అత్ర ఉపసర్గ వత్తి తిన
ఓకే సంథింగ్ లైక్ ద పర హ్యహ అండ్ పరశ్వ హ్యాడ్ వాట్ వి హ్యాడ్
సంథింగ్ పర నిర్వృతి ఎక్స్ట్రీమ్ హ్యాపీనెస్ ఇది అర్థ.
ఓకే
ఓకే,
I'm sorry, I think so that means just I'm telling in Telugu that deeni kosam aanandam kosam mangalam kalaganam kosam deeni kosam ee padyalu chadavandi annattu, that's what it mean.
Satyam satyam.
Okay, sure, thank you.
Pashtam edavata
so he's receiving all these things
by reading the following mantras. Yeah,
aam aam aam, satyam satyam.
Atra kavya being read for the following purposes, that Satyam. Is for yasha arthakrite vyavahara vide shiveta rakshataye paranirvrutaye jhatiti sadyah paranirvrutaye kaanta sammitataya upadeshayuche.
Basically falasuti, right?
For indicates like, you know, what for it is being read.
Satyam. ఫలశ్రుతివత్ నాస్తి అత్ర, నా తథా నాస్తి, ఫలశ్రుతి నాస్తి, సమన్ సెడ్ ఫలశ్రుతి, నో 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 నో,
ఐ సెడ్ దట్. ఓకే థాంక్ యు.
ఓకే,
ఇట్స్ నందిని, సో ఐ థింక్ పద్మజా ఇస్ ట్రైయింగ్ టు గెట్ ఇన్, షీ గాట్ డిస్కనెక్టెడ్, షీ ఇస్ ట్రైయింగ్ అగైన్.
ఐ డోంట్ సీ హర్ యాక్చువల్లీ అత్ర, నాస్తి సార్, షీ ఇస్ నాట్ ఇన్ ది లిస్ట్ హియర్, షీ ఇస్ నాట్ ఇన్ ది వెయిట్ లిస్ట్ హియర్, ఐ డోంట్ సీ హర్.
ఓకే, ఐల్ ట్రై, ఐల్ ఆస్క్ హర్ టు ట్రై అగైన్.
అత్ర సర్వత్రాపి చతుర్థి విభక్తి పదాన్ని సంతి ఉక్తం.
చతుర్థి మహోదయ, చతుర్థి విభక్తి ఇస్ లైక్ ఫర్ మోస్ట్లీ వెన్ సంబడి ఇస్ గివింగ్ సంథింగ్ టు సమ్వన్, రైట్?
తదేవ తదేవ, పశ్యామ పశ్యామ, అధునా పశ్యామ. అత్ర చతుర్థి విభక్తి సామాన్యతయా కుత్ర కుత్ర భవతి, దానక్రియాయాం సర్వత్రాపి चतुर्थी विभक्ति एव भवति अस्तु अत्र उदाहरणं दत्तमस्ति एतानि सर्वाणि अपि अत्र उदाहरणानि कुबेरः नारायणाय धनं ददाति अथवा यच्छति कुबेरः नारायणाय धनं ददाति अत्र कर्मपदं किमस्ति वाक्ये
ददाति
कर्मपदं
धनं
धनं
धनम् उत्तमम् अत्र कर्मपदमस्ति धनं किल क्रियापदं किमस्ति
गिविङ्ग् ददाति
ददाति अत्र तत् धनं कस्मै इच्छति सः तत्र धनं सः अन्यस्मै इच्छति अस्तु कर्मपदम् अन्यम् उद्दिश्य अस्ति अत्र नारायणाय नारायणाय ददाति तन्निमित्तं स्पष्टं वा एतावता
स्पष्टम्
अत्र अन्यानि उदाहरणानि पश्यामः वल्लीभगिनी पठतु कृपया
द्वितीयवाक्यं वा महोदय
आमां
कविः धनाय का कविः धनाय काव्यं लिखति
कविः धनाय धनं प्राप्तुं काव्यं लिखति अत्र प्रश्नः कः कविः किमर्थं काव्यं लिखति इति प्रश्नः कविः धनाय काव्यं लिखति स्पष्टं किल इदं वाक्यं किमर्थं धनाय
महोदय तृतीया विभक्ति एव किमर्थं
तत्र कथम् आसीत् प्रश्नः तत्र किमर्थं नाम कारणमपि सूचयति सत्यं तद्भिन्नम् तत्र तत्र करणार्थे तत्र अस्ति
पुनः वदतु महोदय
तत्र उदाहरणं तत्र हेतुं सूचयति तृतीयाविभक्तौ हेतुं सूचयति तत्र अत्र कारणं
कारणम् आम् कारणं
यू गेटिंग व्हेन यू डू दिस देयर यू आर आस्किंग व्हाई आर यू डूइंग दैट अत्र व्हाट आर यू गेटिंग बाय डूइंग दिस इति अर्थः
हियर अत्र
अत्र रङ्गमहोदय अग्रिमं वाक्यं पठतु कृपया
यस् अस्मि यूयम् आनन्दाय काव्यम् अटत
यूयम् आनन्दाय काव्यं पठत अत्र वाक्यं स्पष्टमिति मन्ये प्रश्नाः न सन्ति इति भावयामि अग्रिमवाक्यमपि पठतु कृपया
धर्माय गृहस्थः भवतु
धर्माय गृहस्थः भवतु
गृहस्थः किमर्थं भवतु
धर्मं कर्तुं धर्माचरणाय गृहस्थः भवतु अत्र सत्यं किमर्थं भवतु धर्माय भवतु
sorry I didn't understand the meaning of that what does it mean the gruhastha is in some the family man is it
yes satyam gruhastha nama kah artha tatra you should get married iti artha kila gruhastha nama kah artha tatra when are you gruhastha
yeah somebody who
when
get married
okay exactly yeah. Household should you marry is the question here dharmaya
okay
so mahodaya in the tritiya vibhakti we also saw anandena he did that then kashtena and here also we are using anandaya so
tatra bheda kaha tatra avagachatu tatra anandena patatu do it with happiness iti artha atra do it for happiness
And here?
You're doing it for happiness. You want to get it. Ityasmat.
With and this is for happens.
Dharmaya Gruhastaha Bhavatu.
Atra Bhavan iti Katrupadam Adhyarha iti Manye.
Satyam.
Sorry, what was her question?
Kartrupadam nasti kila, Kartrupadam atta nasti. Bhavan iti nalikitam asti tatra, vake kutrapi.
Yes. Oh, got it.
Implied door. Yeah.
it gives, because it is Prathama Ekavachanam, it can mislead. That's what I just wanted to clarify. Because Bhavatu has come, then Bhavan has to be there.
Not just Bhavan, right? It can be Saha. Anything. Rama, other exclamation, Rama. Could be Ramaha Dharmaya Gruhastha Bhavatu. It could be anything. Astu, anantram. Amba Murliji Kurpaya Patatu.
Kantaharaya Suvarnam Krinati.
Kimartham sa Suvarnam Sava Sahava Kopi Bhavatu. Kantaharaya Suvarnam Krinati. Idamapi Spashtamiti Manye Atra.
What does it mean? What is Kantahara?
Kantahara, Kshamta.
Necklace.
Oh. Okay.
Suvarnam is gold, right?
Suvarnam is gold. Okay. Bought gold for necklace.
Ravi Mohan, apatathu kripaya. Ravi Mohadaya.
Ji. Aushadam. Arogyam bhavati.
Arogyaya bhavati.
Arogyaya bhavati.
That's the whole point. Okay. Arogyaya bhavati. Aushadham arogyaya bhavati. Kimartham aushada sevanam. Arogyaya. Arogyaya aushadham.
So it's something like medicines are for health. Is that the meaning?
Satyam.
We can't use asti there.
Of course.
So bhavati means then it's still happening. Like you have mentioned.
Bhavati nama sahardha. Samanyataya bhavati nasti. Kimiti tatra. Interchangeability vadama. Kintu sahardha nasti. Vastavikataya. Bhavati nama it will become iti artaha. Samanyataya.
Kimartham sthane kasmayiti pruchatum saknoti va?
Prashtum nischayena. Nischayena. Kasmayiti. Prayaha kimartham iti eva yogyam syat. Samanyataya kasmayi nama kamapi uddishavayam pruchama.
Astu.
Kasmayi dadati. Prayaha. Kasmai hitam. Kasmai vadati tatha. Kintu atra kimardham iti eva uchitam syat.
So what is the subtle difference between those two? Kimardham and kasmai? I am unable to grasp that subtle difference.
Usually when we use kasmai, right? For whom it prasna bhavati tatra.
Asto.
When you're saying kasmai, right? You know it is a pumlinga word. So, I mean, unless you know, you're pretty sure that you know, this is a pumlinga word, you can't, well, why would you use kasmai?
Okay.
Tavadeva. Agree. Padat, Bhavadeva padat kurpaya?
We to continue?
No. Kausalya.
Adhyayanam chatrebhyaha hitam.
Yatra yatra hitam tatra tatra chaturthi vibhakti.
Hitam artha kaha? Hitam artha kaha?
Popi vadatu hitam padasya artha kaha?
Welfare.
Uttama.
Sorry?
Benefit iti chintayatu bho. हितं वेलफेयर सहार्दा अपि अस्ति
ओ ओके वेलफेयर ओके
दानक्रिया सह हितं इति पदम अपि चतुर्थी अवश्यम्
अवश्य निश्चयेन भवति
ओके सो दट मीन्स एक्सरसाइज इज बेनिफिशियल टू स्टूडेंट्स दैट्स व्हाट इट्स सेइंग
एक्सरसाइज वा किं भो
अध्ययनम् ओके व्हिच इज स्टडीज
स्टडीइंग
प्रैक्टिस प्रैक्टिस ओके
प्रैक्टिस
प्रैक्टिस ओके ओके ओके
शंकर महोदय पठतु भवान् अग्रिम वाक्यं
गुरुः शिष्याय हितोपदेशं वदति
गुरुः शिष्याय हितोपदेशं वदति इदमपि स्पष्टमिति मन्ये सुभाषिजि अग्रिमं वाक्यं पठतु
दुर्जनः सज्जनाय असूयति
असूयति अत्र किञ्चन किञ्चन वक्तव्यमस्ति अत्र असूयति अत्र पदं क्रियापदमस्ति असूयति असूयति इति पदस्य अर्थः कः
जेलस्
तादृशार्थः अस्तु यं प्रति तादृशः भावः अस्ति तस्य चतुर्थी विभक्तिः भवति यं प्रति अस्तु पश्य अस्तु अत्र उदाहरणाय प्रायः यं प्रति अस्तु कथं वक्तव्यम् अस्तु तत्र पश्यतु किमिति दुर्जनः सज्जनाय असूयति अस्तु जलस् इति अर्थः किल अत्र अत्र तादृशः भावः यं प्रति अस्ति दुर्जनः असूयभावः अस्तु तादृशः भावः यं प्रति प्रकटयति सज्जनं प्रति प्रकटयति दर्शयति इत्यस्मात् सज्जनस्य चतुर्थी विभक्तिः भवति
I did not understand mahodaya avagatam na
avagatam va well I mean if I want to just put it in English right your asuyati when you use asuyati you're showing that bhava towards whom sajjana there right
okay
okay so sajjana gets chaturthi bhakti
okay
that's it
it answers the question to also right to who
yes satyam tavadeva
so sarja durjanah sarjanaya asuyati that means bad people are showing
bad people ekaheva tra ekavachane asti bad person iti artha tavadeva some bad
he is showing asuya to all the good towards the good people
So if I have to ask the question So instead of Kasmai, I'm looking at the chart. Should I say Kebhya, Kabhyam or Kebhya because it's plural?
Satyam. Kebhya, Kabhya, Satyam.
Thank you. Sorry, go ahead.
So, Mata Shishave Vatsalyam Prakatayati. Suddham va, Vakyam?
Nishchayena. निश्चयेन दुर्जनः सज्जनाय असूयति नाट् भाव ओन्लि दीस् भावास् नाट् एव्री भाव अस्तु अनन्तरं कौरवाः सुभाषिणीजी पठतु कृपया भवति
कौरवाः पाण्डवेभ्यः
द्रुह्यन्ति द्रुह्यति नाम टु चीट् इति अर्थः द्रुह्यति नाम टु चीट् कौरवाः पाण्डवेभ्यः द्रुह्यन्ति अत्रापि चतुर्थी किमर्थं चतुर्थी इति अधुना प्रश्नः कृपया मा क्रियतां तत्र सूत्राणि सन्ति तद्विषये अधुना मास्तु एवम् अवगच्छतु अधुना यत् असूय द्रुह् ईर्ष्या क्रोधः एतेषु सर्वेषु स्थानेषु अपि एतेषाम् अथवा एतेषां धातूनां प्रयोगे चतुर्थी विभक्तिः भवति.
एकवारं पुनः वदतु. असूया, दृक्,
क्रोधः, द्रोहः, ईर्ष्या, असूया, अर्थकानां प्रयोगे न केवलं एते धातवः सिमिलर् धातुस् वित् यु नो अदर् धातुस् वित् सिमिलर् मीनिङ्ग् एतत् अर्थकानां धातूनां प्रयोगे अपि चतुर्थी विभक्तिः भवति.
Shukaji, why they are using the Pandavi Bihadeya, Pandavaya?
Sir, there are five people.
Bahuvachana. Okay. So if I say Pandavaya, that means only one person?
Satyam. Tatra pancha Pandavaha kila. Pandavaha nama kaha tatra Arjunavaha, Bhimaha va kaha. Ichasmat Pandavebhyaha.
Pandavebhyaha, okay.
Sarvan prati, nati evalam ekasmai iti. స్పష్టం వై తావత అనంతరం పద్మజాజి కృపయా పఠతు.
రావణ కస్మై ఈర్ష్యతి రావణ రామాయ ఈర్ష్యతి.
రాత్ర ఈర్ష ఈర్ష నామ
jealousy.
Same thing, right? Jealousy.
Same thing. Satyam.
Like the number 9, right?
Oh, no. How is it number 9? Sorry.
Asuyati. Asuyati is jealousy. Irshayati is also jealousy.
Okay, number 9. Okay, that's what. Okay, yes. Okay. Kamsaha. Natarajanji, kripaya.
कंसः कृष्णाय क्रुध्यति.
कंसः कृष्णाय क्रुध्यति. इदमपि स्पष्टमिति मन्ये. क्रुद्ध नाम टु हेट् इति अर्थः. टु बि आङ्ग्री तादृश अर्थः अत्र. अस्तु अन्तिमं वाक्यं. बालकाय दुग्धं रोचते. अत्र रोचते इति क्रियापदमस्ति. ईदृशं क्रियापदं पूर्वं वयं न अपश्याम किल. रोचते एतावता धावति, ईर्ष्यति, पठति, ईदृशानि एव क्रियापदानि दृष्टानि सन्ति. किन्तु प्रथमवारमत्र किञ्चिदिव भिन्नमस्ति तं पदं रोचते. अस्तु अत्र किञ्चित् वक्तव्यमस्ति. धातवः द्विधा विभक्ताः. अस्तु परस्मै पदिनः आत्मने पदिनः. धातोस् आर् क्लासिफैड् इन्टु टू केटगरी इन्टु टू बकेट्स् इन् दट् परस्मैपदी अण्ड् आत्मनेपदी. ओके अप् अण्टिल् दिस् पायिण्ट् वि हव् बीन् लुकिङ्ग् एट् ओन्ली परस्मैपदीस् like pathati, dhavati, kridati, so on and so forth. How do you know if it is parasmaipadi or anatmanepadi? Because it is ending with ti. For now, just, you know, that is all you need to know. Okay? Irshyati, pathati, gachati, pashyati, bhavati, likhati, evam ritya. Atmanepadi dhatava bhinna ritya bhavanti. Rochate, kamayate, सेवते एवं रीत्या भवन्ति. रोचते इति तादृशं पदम्. ओके वी विल लर्न् अबौट् आल् दिस् इन् लेवल् टु आत्मनेपदि. जस्ट् फोकस् आन् परस्मैपदि फर् नौ.
वट् इस् रोचते?
दट् इस् टेलिङ्ग् यु हेङ्ग् आन् हेङ्ग् आन्. रोचते नाम इच्छति इति एव अर्थः. किन्तु ईषदिव तत्र भेदः अस्ति. सामान्यतया वयं किं वदामः? बालकः दुग्धम् इच्छति. सः एव अर्थः अत्र वाक्यस्य. बालकया बालकः दुग्धम् इच्छति. किन्तु अत्र किमस्ति? बालकाय दुग्धं रोचते इति दत्तमस्ति अत्र. अस्तु तत्र किमर्थम् एवं रीत्या अस्ति? किमर्थम् अत्र चतुर्थी इति प्रश्नः. वाक्यस्य अतः सामान्यतया समानमेव इति वयं वदामः किन्तु तत्र ईषदिव भेदः अस्ति वेरि लिटिल् डिफ्रेन्स् ओके अत्र रुच्छु धातोः कः अर्थः इति आदौ अवगन्तव्यं भवति अस्तु अत्र दुग्धम् इति कर्ता अस्ति अस्मिन् वाक्ये दुग्धम् एव कर्ता अस्ति ओके इन् दिस् सेण्टेन्स् दुग्धम् इस् द सब्जेक्ट् इफ् ऐ से बालकः दुग्धम् इच्छति वाट् इस् द सब्जेक्ट् इन् दट् सेण्टेन्स्
मिल्क्
बालकः इस् द सब्जेक्ट् अत्र अस्मिन् वाक्ये दुग्धम् एव कर्ता अस्ति अस्तु कः अर्थः अत्र दुग्धं किं करोति नाम बालके प्रीतिम् उत्पादयति इत्यस्मात् दुग्धमेव अस्मिन् वाक्ये कर्ता अस्ति कः अर्थः दुग्धं बालके प्रीतिम् उत्पादयति नाम दुग्धं ओके इट् इन्ड्यूसस् आर् जनरेट्स् इच्छा इन् द बाय् इत्यस्मात् दुग्धम् इस् द कर्ता अत्र
No, it's just an exception for Chaturthi Vibhakti, right? Whenever there is Rochate.
If you say Natarajaya Samskrutam Rochate. So Samskrutam actually generates interest in Nataraja. Preetim Utpadayati Tatra.
Utpadayati Tukte Kim Mahodaya.
It generates, he's liking it. Okay. If I say Narayana Bhakti Narayanaya Bhakti hi Rochate. Let's take this sentence. Narayanaya Bhakti hi Rochate. Kahartaha, this Bhakti Bhavana is creating interest in Narayana. And making sure, you know, Narayana likes it. Not just creating interest. It will create interest in Narayana. And it is making Narayana like that bhakti. So that is why Narayana gets Chaturthi there. This is an exception rule.
Okay. And this Ruch Dhatu is the same thing that you earlier told for Abhiruchihi, is it? Interest, special interest or whatever. Abhiruchihi is basically an interest or a hobby, right? So is it the same?
The Abhiruchihi is a nama padam, sir, first and foremost.
Okay. Okay, because in one of my earlier paragraphs, I mentioned like my special interest during my school days used to be cricket.
Okay. Okay. Well, eventually all the nama padas are derived from dhatus. So, yes.
Okay, and that same ruch is the rochate here, right? That's the same root word. Yes. Oh, okay, fine. All right.
Pashtam Vaitavata?
Yeah, Pashtam.
Okay, Narayanaya Bhaktihi Rochate. What are the, Vivachanam, Madhyam Purusha form, so on and so forth? We'll look at this later. But for now, just know the Ekavachanam form. That is good. Okay, Rochate is the Ekavachanam form. बहुवचनं फार्म् यथा पठति पठन्ति रोचते रोचन्ते तत् पर्याप्तम् अधुना तावदेव रोचते बिकम्स् रोचन्ते बहुवचनं एतावत्
या दिस् इस् या सोरि सो इफ् ऐ वाण्ट् टु यूस् समथिङ्ग् लैक् मोर् मनी मेक्स् पीपल् ग्रीडि देर् आल्सो ऐ केन् यूस् चतुर्थी रैट् लैक् धनं जनाय ऐ डोण्ट् नो वाट् इस् ग्रीडि लोपं ऐ थिङ्क् इस् इट् लोपं Lopam Nirmati, can I say? Dhanam?
No.
Okay. For greed, I don't know what is the word for greed. So if you want to say money, make people right? greedy.
Irshyati, that's what
is... No,
that is jealousy. Irshyati is jealousy.
Greed, kila. Lobhaha iti vadamaha.
Lobhaha. Okay, fine. Lobhaha. Okay. So there, can I say Dhanam, Janaya, Lobam, Nirmati to make, I don't know again, how to say, makes greedy. more money makes people greedy. So there can I use chaturthi for jana janaya
tatra no tatra dhanam tatra karanam asti kila because of dhanam tatra tatra chaturthi kimartham truthi avashyakila dhanena janaha evam bhavanti
okay because I'm trying to see whether this bhaktihi narayanaya rochate right like meaning that is creating something in narayana like meaning making narayana like it or whatever so here also money is making people greedy right
so dhanam janabhya rochate astu nischayena astu dhanam janabhya rochate yes you can say that yes
okay fine okay.
Of course yes
okay I think I have a basic rule. Bhakti is creating desire with two narayana right no
why are they two narayanas when I say narayanah here I mean vaikuntha narayanah here
I think he is saying
T or two
EO2 yeah in narayana or two narayana
towards narayana towards
narayana yes
narayana
in narayana yes clear
I think it's easier with that asmabhyam samskrutam rochate
samskrutam rochate
right?
am
smakam samskrutam rochate
no kim bhavati chaturthi vibhakti ka asmad padasya chaturthi vibhakti ka
mahyam
astu ekam
this ekavachanam right mahyam is ekavachanam
mahyam ekavachanam asti tat
अस्मभ्यं संस्कृतं रोचते इत्युक्ते फॉर अस संस्कृतं वी लाइक
मेक्स इंटरेस्ट आई मीन वी हैव इंटरेस्टेड इन संस्कृतं
सो संस्कृतं
क्रिएट्स इंटरेस्टनेस
वी हैव इंटरेस्ट इन इट
एंड इट इज मेकिंग श्योर दैट यू नो यू लाइक इट not only generating interest but you are also liking it eventually atah eva rochate spashtam va
spashtam
abhyasam kinchit avashyakam mahodaya
tannimittam eva tatra aropitam asti kila tatra
I think
mahodaya
context and
the sentences which we had discussed just now and the forms which we used in the shloka the very first one the preliminary shloka the form is different if you can just open the
absolutely.
Document
yes hang on absolutely I know your question but hang on so it boils down to the same thing that I've been telling before so just give me 1 minute let me open that first I thought I put the document there. Did I not upload the document for Chaturthi? I thought I did.
Yeah, you did. Yeah,
you did it, right? For some reason, I'm not.
Yeah, you did.
Finding it.
Oh, you just refresh, maybe.
Yeah, but in that document, all these things did not come, Mahogaya. Only the dadatu part.
No, we have everything.
No. It had bahuvachanam, everything was there. It's a multi-page document actually.
Okay, hang on, let me share this one more.
Okay, I think that there are two things, right? One that was posted yesterday, which has everything. I think it is what they're referring to. Right.
Okay. Atra, someone has that question. Hang on, I'm going to tell you right now. Okay? Atra, bhavat iti padam asti kila? Was it no sorry was it
yeah
I think I asked yeah
and can you read the forms for bhavat here atar kupaya patatu bhavat padasya pratipatikasya rupane atra
bhavate bhavatbhyam bhavadbhyah
pumlinge tatha asti pumlinge bhavate bhavadbhyam bhavadbhyah pumsakalinge
भवते भवद्भ्यां भवद्भ्यः
स्त्रीलिंगे
स्त्रीलिंगे भवत्यै भवतीभ्यां भवतीभ्यः
తత్ర నపుంస అత్ర తకారాంత పదం అస్తి కిల హలంత పదం హలంత పదం అత్ర పశ్యతు రామః అకారాంత పదం అస్తి ఏవం రీత్యా భవత్ అత్ర తకారాంత పదం అస్తి తకారాంత పదం అస్తి భవత్ భవతే యశస్ సకారాంత పదం అస్తి తత్ కిం భవతి తర్హి యశసే మనస్
మనసే
మనసే
ఏకవచనం వర్డ్ ఇస్ రామాయ
రైట్ హియర్
Yes, yeah. So if we add that one more section, then that sheet will be like a good cheat sheet then.
We have both the sections here. Atra Ajanta Padani Santi, Atra Sarvanama Padani Santi. I didn't understand your question, sorry.
Okay, she's okay. asking for examples like where it is for Yetat, sorry, not Yetat. Yetat and this is there. She's asking for things like Rama and Rama. That kind of
you have
what will be the equivalent for that?
Yeah, you have
all the page is there. The first page is there.
Yeah.
The first page is for that. Dandaha, Suddhakantaha, Sudhakantaha,
Sarpaha,
Sarpaha. That is there.
Okay.
Sarvani Rupanata Santi Eva.
We didn't have this kind of a thing for Tritiya Vibhakti. If you can just post it, what is
for Tritiya? I put Tritiya as well.
No, Tritiya, the second page, what you have given, right, for all forms. I don't think we had that sheet for Tritiya.
Really?
I'm not sure. Maybe I would have missed, but I don't remember seeing it. Yeah, thanks.
I'm pretty sure I did, but okay, I'll do that. Asto.
Okay.
Padmaja Bhagini Bhavadiya Patatu, Dandaha.
Dandaha. దండాయ దండాభ్యాం దండేభ్యః
సుధాఖండః
సుధాఖండాయ సుధాఖండాభ్యాం సుధాఖండేభ్యః
శంకర్ మహోదయ
వృక్షః వృక్షాయ వృక్షాభ్యాం వృక్షేభ్యః
సర్పః అపి వదతు
సర్పః సర్పాయ సర్పాభ్యాం సర్పేభ్యః
రంగమహోదయ
దీపః దీపాయ దీపాభ్యాం దీపేభ్యః రామః రామాయ రామాభ్యాం రామేభ్యః
రవిమహోదయ
యానం యానాయ యానాభ్యాం యానేభ్యః
పుస్తకాయ పుస్తకాభ్యాం పుస్తకేభ్యః పుష్పం
పత్రం పత్రం
ఓ పత్రం పత్రాయ పత్రేభ్యాం పత్రాభ్యాం పత్రేభ్యః
సుభాషిణి భగిని
పుష్పం పుష్పాయ పుష్పాభ్యాం పుష్పేభ్యః యంత్రం యంత్రాయ యంత్రాభ్యాం యంత్రేభ్యః
పద్మజ భగిని
ద్విచక్రికాభ్యాం ద్విచక్రికాభ్యాం ద్విచక్రికాభ్యః పుస్తికాయై పుస్తికాభ్యాం పుస్తికాభ్యః
గాభ్యః అస్తు
వాట్ వాట్
व्हाट इज पुस्तिका पुस्तिका अर्थः कः
पुस्तिका पदस्य अर्थः कः
बुक
बुक
बुक लिवेट
तावदेव पुस्तिका नाम बुक तावदेव
ओ सो द ओके सो पुस्तिका हैज अ पुस्तिका
टू टेक नोट्स तावदेव पुस्तिका
गर्ल बुक
what is pustika? When do you use pustakam? When do you use pustika?
Pustika is you know something that you use to take your notes. It's like a notepad kind of the small tiny ones.
Oh, okay. This pustika. Okay.
Booklet. What is sopanam?
Sopanam
stairs.
Okay.
Staircase is it?
Hmm.
Okay.
So where is sopanam here?
I think we are only adding like the bhyam on the feminine words, right? Yeah, just the bhyam.
Ravadeva, Satyam.
Bhyam is common, right? For both Pumlinga, Sudhan, Apumsaka, Lingai, Sri Linga. All of them, bhyam is common.
Yes. Yes, yes. All. Bhavan Patat Agre, Natajan Mahade?
Yeah. Patashala Yay, Patashala Bhyam.
अंकनीभ्य
द्विचक्रिका द्विचक्रिकाभ्याम् अङ्कनी अङ्कनीभ्याम् तावदेव
लेखनी लेखन्यै लेखन्याभ्याम् लेखन्याभ्यः
लेखनीभ्यः
लेखनीभ्यः
लेखनीभ्यः घटीपदस्य शङ्कर महोदय
सूचीभ्याम्
घटी घटीभ्याम् लेखनी लेखनीभ्याम् अङ्कनी अङ्कनीभ्याम् यु जस्ट एडिंग भ्याम् तावदेव
अङ्कनी
अङ्कनी अर्थः कः
अङ्कनी पेन्सिल् लेखनी
पेन्सिल्
अङ्कनी पेन्सिल् ओके ओके
So, Mahathir, I always wanted to know, both have Ankhani, Lekhani, we have the same sounds, but why are we using two different Kaha Shabdaha over there?
What now? Sorry, I didn't answer the question.
No, like Khani, Kani, it's ending, but here we are using the saw
we are using alpa prana and one
we are using mahaprana
yeah. oh tatra ankaha ankaha namak ahardha you mark something right anka is the word from there you got ankani
oh
here lekha lekhanam from there you got lekhani
oh okay fast
gruhini पद्मजा भगिनी भवति वदतु
गृहिणी गृहिण्यै गृहिणीभ्यां गृहिणीभ्यः
नन्दिनी भगिनी
दर्वी दर्व्यै
एतावता स्पष्टमिति मन्ये अत्र रूपाणि अत्र किमिति अत्र सर्वनामपदरूपाणि सन्ति अत्र सर्वत्रापि कौसल्या भगिनी भवती पठतु
एतत् एतस्मै
We've got a couple of options, but we'll go through the first one.
Etasmai, etabhyam, etebhyaha. Strilinge, etasyai, etabhyam, etabhyaha. Tat, pullinge, tasmai, tabhyam, tebhyaha. Nabumsakalinge, तस्मै ताभ्यां तेभ्यः स्त्रीलिङ्गे तस्यै ताभ्यां ताभ्यः
पश्यतु अत्र एतस्मै अत तस्मै एताभ्यां ताभ्यां एतेभ्यः तेभ्यः एकारः एव नास्ति तावदेव अन्यानि सर्वाणि रूपाणि समानानि एव सर्वाणि अन्यानि न सर्वाणि रूपाणि समानानि एव अत्र एकारः नास्ति तावदेव अस्तु भवत्यति यथा पूर्वोक्तं तकारान्तपदमस्ति सो भवते तकारान्तपदे एकं हलन्तं पदं जानं चेत् पर्याप्तम् अन्येषु शब्देषु नाम अथवा अन्येषां शब्दानां तादृशानि एव रूपाणि भवन्ति सामान्यतया मनस् मनसि सुहृद् किं भवति रूपं सुहृद्
सुहृदे
हृदे
वाच्
वाचे
वाचे तडित्
तडिते
तडिते
व्हाट इज द लास्ट व्हाट यू सेड
तडित् तडित् नाम विद्युत् इति अर्थः
ओ तडित्
लाइटनिंग
लाइटनिंग
लाइटनिंग ओके
So the watch, for example, when you write it, you would write watch say. Is it watch say?
No, when you
watch, write, watch.
Vidyut ityukte electricity kila.
Tadit saudam. You can use it for lightning. Vidyut also you can use for tadit.
Oh,
okay.
Electricity.
Watch becomes vache. Is that what the question is? Shankar Mahode?
Sorry, yeah, I got it. Thank you.
Asto, atra. अन्यानि रूपाणि सन्ति तत् तुभ्यम् अत्यन्त इदमपि पठतु शङ्कर महोदय भवानेव पठतु अस्मद् अण्ड् युष्मद्
अस्मद् मह्यम् अवाभ्याम् अस्मभ्यं
पुंलिङ्गे नपुंसकलिङ्गे स्त्रीलिङ्गे च रूपाणि समानानि भवन्ति अस्तु युष्मद् पठतु पठतु
तुभ्यं युवाभ्यां युष्मभ्यं
युष्मभ्यम् अत्रापि रूपाणि समानानि भवन्ति अत्र अवगच्छन्तु सर्वे कृपया अस्मद् इति प्रातिपदिकं युष्मद् इति प्रातिपदिकम् अहम् इति पदं किल प्रथम एकवचने तत्र प्रातिपदिकमस्ति अस्मद् त्वम् इति पदस्य प्रातिपदिकमस्ति युष्मद् प्रातिपदिकं नाम पूर्वं चर्चितम् अस्माभिः कः अर्थः
रूट् वर्ड्
रूट् वर्ड् भवतु पर्याप्तम् अत्र भवत् सर्व तत् एतानि सर्वाणि अत्र प्रातिपदिकानि सन्ति अत्र अभ्यासः दत्तः अस्ति कृपया कुर्वन्तु प्रश्नाः सन्ति चेत् पृच्छन्तु अस्तु अधुना वयं
महोदय So, unless we know the root word, we won't know whether the forms follow the page one or this page two, right? So that's more important. We need to recognize the root word, right?
Absolutely. Atra kim bhavati pashyantu idam eva svikaroto bhavati iti asti astu idam takaranta padamasti iti jnanam nasti chet kim chintayanti sarvepi bhavataha iti akaranta pumlinga padamasti yatha ramaha ramaha saptami ekavachana kim bhavati rame tathaiva bhavataha padasya bhavate syat iti brahmaha bhavati ityasmat kīdusha pratipadikam tad atyantam avashyakam asti tad jnanam avagatam va kim uktam iti.
Yeah. So that's the challenge then. We have to figure out what is the root word. Yeah, thank you.
Asto. Idam kurvanta sarve krupaya prashnaha santi chet apuchanto. Adhuna tat pathama punaha ekavaram.
In that sheets that you uploaded, there is one word called kalaha. I think page 200. Kalaha sajjanebhyah irshanti. What is the dictionary didn't have kalaha meaning? What does that mean?
Can you write it down for me? Kalaha.
Like second ka and la aha. So it's a plural form of kalaha.
Kalaha.
Kalaha sajjanebhyah irshyanti.
Kalaha nama
fighting, right? No?
Tatha nasti.
Durjanaha.
Durjanaha iti eva artha tatra, satyam.
Okay, thank you.
We have khalnayak in Hindi. Something like that.
No, kalaha means to make...
Fight, right? No, not that...
But that is first ka, right? This one is second ka. Ka, kalaha.
Okay. Is it the kalagam kind of a thing? Where you are creating some confusion with others? That kind of a thing? Is it?
Someone that is means? This is called kalaha tavadeva. Kalaha. Someone who is mischievous.
Yeah, that's what we say kalagam, right?
In which language? So
that is...
Correct, but I thought it came from Sanskrit actually. I don't know whether it is Tamil word.
You're creating mischief, basically.
Whatever Narada does basically, right? He just tries to go two places and then brings up something. That's what we use the term kalagam.
Okay.
I thought it's Sanskrit. Okay.
Etavatasma bihi sloka chatushtayam asto. ఆదౌ అత్ర శ్లోకం కోపి పఠతు అనంతరం అత్ర కిమస్తి ఇతి వాక్య రూపేణ వదంతు. రీడ్ ద శ్లోక హియర్ అండ్ టెల్ ద సేమ్ థింగ్ ఇన్ యువర్ ఓన్ సెంటెన్సెస్. కహ ఆరంభం కరోతి? కరోతి.
అహం ఆరంభం. ఓకే. ఆసీద్ రాజా అనలో నామ వీరసేన సుతు ఉపన్నో గుణైరిష్టై రూపవాన్ అశ్వకోవిదః. ఏష నళ నామస్య రాజా ఆసీత్.
భవతః నామస్య ఇతి వదతి వా? కిం వదతి తత్ర?
నళ
భవతః నామ నలో నామ.
నళో నామ రాజా ఆసీత్.
అస్తు.
ఏషః వీరసేన వీరసేనస్య సుతః.
అస్తు.
ఏషః ఏషః గుణైరిష్టై
అపరహ కోపి సహాయం కరోతు.
ఉత్తమ గుణః.
ಉತ್ತಮ ಗುಣ ಸಂಪನ್ನ ಐ ಡೋಂಟ್ ನೋ ವೆದರ್ ಟು ಸೇ ಸಂಪನ್ನ ಹ್ಯಾಸ್ ಪೊಸೆಸ್ಸೆಸ್ ರೈಟ್ ಲೈಕ್ ಉಪನ್ನ ಇಸ್ ಪೊಸೆಸ್ಸೆಸ್ ರೈಟ್ ಬೇಸಿಕಲಿ
ಗುಣವಾನ್ ಅಸ್ತಿ
ಕಿಮಿತಿ
ಹಾ ಯಶಃ ಗುಣವಾನ್ ಯಶಃ ಗುಣವಾನ್ ಅಸ್ತಿ
ಗುಣವಾನ್ ಅಸ್ತಿ
ರೂಪವಾನ್ ಅಸ್ತಿ
ಯಾ ಗುಣವಾನ್ ಅಸ್ತಿ ಕರೆಕ್ಟ್ ಯಶಃ ರೂಪವಾನ್ ಅಸ್ತಿ ಯಶಃ ಅಶ್ವ ಕೋವಿದಃ ಅಪಿ ಅಸ್ತಿ
ಅಸ್ತು ಉತ್ತಮಂ ಪೂರ್ವಂ ನಲಃ ನಾಮ ರಾಜಾ ಆಸೀತ್ ಸಹ ವೀರಸೇನಸ್ಯ ಸುತಃ ಸಹ ಬಲೀ ಸಹ ಇಷ್ಟೈಃ ಗುಣೈಃ ಉಪಪನ್ನಃ ತಥೈವ ರೂಪವಾನ್ ಸಹ ಅಶ್ವಕೋವಿದಃ ಅಪಿ ಅನಂತರ
ಅತಿಷ್ಠನ್ ಮನುಜೇಂದ್ರಾಣಾಂ ಮೂರ್ಧ್ನಿ ದೇವಪತಿರ್ಯಥಾ ಉಪರ್ಯುಪರಿ ಸರ್ವೇಷಾಂ ಆದಿತ್ಯ ಇವ ತೇಜಸ ಸಹ ನಲಃ ಯಥಾ ದೇವಪತಿಃ ಮನುಜೇಂದ್ರಾಣಾಂ ಮೂರ್ಧ್ನಿ ಅತಿಷ್ಠನ್
ಅತಿಷ್ಠತ್
ಅತಿಷ್ಠತ್ ಆದಿತ್ಯ ಇವ ತೇಜಸ ಸರ್ವೇಷಾಂ ಉಪರ್ಯುಪರಿ ಅತಿಷ್ಠತ್
ಉತ್ತಮಂ ಅನಂತರಂ
ಬ್ರಹ್ಮಣ್ಯೋ ದೇವವಿಚ್ಛೂರೋ ನಿಷದೇಷು ಮಹೀಪತಿಃ ಅಕ್ಷಪ್ರಿಯಃ ಸತ್ಯವಾದಿ ಮಹಾನಕ್ಷೌಹಿಣೀಪತಿಃ ಸಹ ನಿಷದೇಷು ಮಹೀಪತಿಃ ಬ್ರಹ್ಮಣ್ಯಃ ದೇವವಿತ್ ಶೂರಃ ವಾ ದೇವವಿತ್
ನೆವರ್ ಮೈಂಡ್ ದಟ್ ಅತಃ ಏವ ತಥಾ ಪಠತಿ ಭವತಿ ಅಸ್ತು ವೇದವಿತ್ ಶೂರಃ ನಾಟ್ ದೇವ ವೇದವಿತ್ ವೇದಂ ಜಾನಾತಿ ಸಹ ವೇದವಿತ್ ವೇದಂ ವೇತ್ತಿ ಇತಿ ವೇದವಿತ್ ವೇದವಿತ್ ಶೂರಃ ಅನಂತರಂ
ನಿಷದೇಷು ಮಹೀಪತಿಃ
ಅಸ್ತು
ಅಕ್ಷಪ್ರಿಯಃ ಸತ್ಯವಾದಿ ಮಹಾನ್ ಅಕ್ಷೌಹಿಣೀಪತಿಃ
ಅಕ್ಷೌಹಿಣ್ಯಾಃ ಪತಿಃ ಅಕ್ಷೌಹಿಣೀಪತಿಃ
ಓಕೆ ಅಕ್ಷೌಹಿಣ್ಯಾಃ
ಯಥಾ ಶ್ರಿಯಃ ಪತಿಃ ಶ್ರೀಪತಿಃ ಅಕ್ಷೌಹಿಣ್ಯಾಃ ಪತಿಃ ಅಕ್ಷೌಹಿಣೀಪತಿಃ ಸಹ ಸತ್ಯವಾದಿ ಅಪಿ ಸಹ ಅಕ್ಷಪ್ರಿಯಃ ಅಕ್ಷಃ ನಾಮ ಡೈಸ್ ಇತ್ಯುಕ್ತ ಕಿಲ ಪೂರ್ವಂ ಅಕ್ಷಪ್ರಿಯಃ ಇತಾತ ಸ್ಪಷ್ಟಂ ಕಿಲ
ಅವತಂ ವೇದವಿಚ್ಛುರಃ ಬ್ರಾಹ್ಮಣೇಭ್ಯಃ ವೇದವಿಚ್ಛುರಃ ಇತ್ಯುಕ್ತೆ
ಕಿಲ ಬ್ರಹ್ಮಣ್ಯಃ ಬ್ರಹ್ಮಣ್ಯಃ ನಾಮ ಕಃ ಅರ್ಥಃ ತತ್ರ ಬ್ರಹ್ಮಣೇ ಹಿತಃ ಬ್ರಹ್ಮಣ್ಯಃ ಸಮ್ಮನ್ ಹೂ ಇಸ್ ಶೋಸ್ ಹಿ ಇಸ್ ಫೇವರಬಲ್ ಟು ಬ್ರಾಹ್ಮಿನ್ಸ್ ಇತಿ ಅರ್ಥಃ ಬ್ರಹ್ಮಣೇ ಹಿತಃ ಬ್ರಹ್ಮಣ್ಯಃ
ಓಕೆ ವೇದವಿತ್ ಶೂರ ವೇದವಿತ್ ಮೀನ್ಸ್ ನೋಯರ್ ಆಫ್ ವೇದ
ಸಹ ಶೂರ
ಶೂರ ವಾಟ್ ಡಸ್ ಇಟ್ ಇಂಪ್ಲೈ ಹಿಯರ್
ನೋ ಹಿ ಇಸ್ ಜಸ್ಟ್ ಡಿಸ್ಕ್ರೈಬಿಂಗ್ ಹಿಸ್ ಕ್ವಾಲಿಟೀಸ್ ಹಿಯರ್ ಸಹ ಬ್ರಹ್ಮಣ್ಯಃ ಸಹ ವೇದವಿತ್ ಸಹ ನಿಷದೇಷು ಮಹೀಪತಿಃ
ಸಹ ಶೂರ
ಸಹ ಶೂರ ಸತಾವದೇವ ಸತ್ಯಂ ಸಹ ಅಕ್ಷಪ್ರಿಯಃ ಸಹ ಸತ್ಯವಾದಿ ಸಹ ಮಹಾನ್ ಅಕ್ಷೌಹಿಣೀಪತಿಃ ಸ್ಪಷ್ಟಂ ಏತಾವತ್ ಅನಂತರಂ ಸುಭಾಷಿಣಿ ಭಗಿನಿ ಭವತಿ ಕರೋತು
ಈಪ್ಸಿತೋ ವರ್ಣಾರೀಣಾಂ ಉದಾರಃ ಸಂಯತೇಂದ್ರಿಯಃ ರಕ್ಷಿತಾ ಧನ್ವೀನಾಂ ಶ್ರೇಷ್ಠಃ ಸಾಕ್ಷಾತ್ ಇವ ಮನುಸ್ವಯಂ
अद् वदतु वाक्यानि.
वरनारीणाम् ईप्सितवान्
ईप्सितः ईप्सितवान्
ईप्सितः ईप्सितः उदारः अस्ति सम्यक् इन्द्रियः कण्ट्रोल् आफ् हिस्
सत्यम् अस्तु
कण्ट्रोल् आफ् आल् इन्द्रियस्
अस्तु
रक्षिता धन्वीनां श्रेष्ठः सः साक्षात् मनु स्वयं मनु साक्षात् स्वयं मनु ऐ डोंट् नो हौ टु टेल्
मनुः इव रक्षिता अस्ति. रक्षिता अत्र आकारान्तपदं नास्ति पुंलिङ्गपदमेव अस्ति. यथा माता पिता अत्र रक्षिता इति पदं ऋकारान्तपदमस्ति ऋकारान्तपदमस्ति. तत्र किमिति आकारान्त श्रीलिङ्गं पति इति भ्रमः मास्तु. प्रातिपदिकमस्ति रक्षितृ रक्षितृ ऋकारान्तपदमस्ति. अनन्तरं पश्यामः. अस्तु सः रक्षिता अस्ति धन्विनां
श्रेष्ठः.
अस्तु मनुः इव सः साक्षात् रक्षिता अस्ति. तावदेव अत्र अन्यत् किमपि नास्ति. अग्रिमं
वयं न अवगतं महोदय. स्वयं किं करोति मनुः इव
साक्षात् मनुः इव स्वयं रक्षिता अस्ति. यथा मनुः तथा अयं साक्षात् रक्षिता अस्ति इति अर्थः.
रक्षिता इत्युक्ते किं?
रक्षितृ नाम प्रोटेक्टर् इति अर्थः.
यथा मनु प्रजान् रक्षितवान् सः रक्षितः रक्षित
इति सत्यम्. अस्तु
वाज़ दिस the first line, what does that mean, or is that something you covered last week? Ipsito
covered last week.
Okay, sorry.
Aaptum ishtah ipsitah ipsitam phalam praptum ishtam phalam ipsitah granthah praptum ishtah granthah tathaiva ipsitah nalah. Okay, he was most sought iti artha by varanarinam. Varanarinam, the best of the women, iti vara vara nama best, nari mahila, varanarinam. He was the favorite of all these people. Ipsitah saha udarah api asit. Udarah nama generous iti artha. Samyatendriyah yata uktam पूर्वं किमिति संयतेन्द्रियपदस्य. हि हेस् कण्ट्रोल् ओवर् आल् द इन्द्रियास्. सः धन्वीनां श्रेष्ठः. सः मनुः इव साक्षात् रक्षिता आसीत्. स्पष्टं वा?
या, थैंक यू.
अनन्तरं
सारी शेखर, ऐ एम् अ बिट् कन्फ्यूस्ड्. नारीणाम् इस् इट् एनी विभक्ति? ऐ एम् नॉट् एबल् टु अंडर्स्टैंड
दैट. षष्टि बहुवचनम् अस्ति. अनन्तरं पश्यामः. अस्तु अपरा काचित् अस्ति अतः विद्या कामत् इति कास्ति पठितुं शक्नोति वा?
हा शक्नोमि.
अस्तु पठतु.
टुडे इस् द फर्स्ट् डे.
अस्तु पठतु.
तत्तैवा सिद्धि दर्श दर्भेषु भीमो भीमपराक्रमः शूरः सर्वगुणैर्युक्तः प्रजा कामः स चाप्रजाः.
प्रजः तथैव आसीत् विदर्भेषु विदर्भेषु तथैवासीत् विदर्भेषु भीमो पराक्रमः
सः राजः भीमो इति पराक्रमः शूरः सर्व सर्वगुणयुक्तः प्रजाकामः स डिंट दिस आई डिंट अंडरस्टैंड स चा प्रजः
पश्याम पश्याम एकनिमिषं पश्याम अत्र सर्वप्रथमं क्रियापदं कुत्र अस्ति
क्रियापदः कामः
क्रियापदं
नो
अतः क्रियापदमस्ति आसीत् किल कः कः आसीत्
तथैव आसीत् विदर्भेषु
भीमः आसीत्
पराक्रमः आसीत्
भीमः आसीत् अस्तु सः भीमः कीदृशः अस्ति
पराक्रमः
भीमः नाम टेरिफैङ्ग् इति अर्थः तत्र शिवस्तोत्रेषु अपि सर्वत्र भवति भीमः इति भीमः नाम टेरिफैङ्ग् इति अर्थः भीमपराक्रमः अस्तु सः भीमः भीमपराक्रमः आसीत् महाराजस्य नाम अस्ति नाम अस्ति भीमः सः भीमः भीमपराक्रमः आसीत् कुत्र आसीत् सः
विदर्भेषु
अत्र विदर्भः पुनः कश्चन देशस्य वा राज्यस्य वा नाम अत्र यथा सः नलः कुत्र आसीत् निषधेषु महीपतिः नलः निषधेषु महीपतिः अत्र भीमः विदर्भेषु महीपतिः एतत् स्पष्टं सप्तमी अत्र यथा नलः निषधेषु महीपतिः तथैव भीमः विदर्भेषु महीपतिः आसीत् एतावत् स्पष्टं वा सः पुनः कीदृशः अस्ति अत्र उक्तं किल नलस्य गुणाः सर्वे अपि अत्र उक्ताः सन्ति सः उदारः संयुतेन्द्रियः श्रेष्ठः रक्षितः अस्ति सः सत्यवादी अस्ति अक्षप्रियः अस्ति सः ब्रह्मण्यः वेदवित् सः शूरः एतावत्रीत्या उक्तमस्ति किल पूर्वम् अधुना भीमस्य गुणाः अत्र उक्ताः सन्ति सः शूरः सः सर्वगुणैः युक्तः भीमः यथा पूर्वमत्र इष्टैः गुणैः उपपन्नः सः सर्वैः गुणैः युक्तः अथवा इष्टैः गुणैः युक्तः सः एव अर्थः सर्वगुणैः युक्तः इष्टगुणैरुपपन्नः समानौ पदौ अर्थः समानः एव अत्रापि वक्तुं शक्यते सर्वगुणैः उपपन्नः स्पष्टं वा एतावता सः प्रजां कामयते प्रजाकामः प्रजा नाम अत्र चैल्ड् इति अर्थः प्रजाकामः प्रजां प्राप्तुम् इच्छति कामयते प्रजां कामयते हि वान्स् अ चैल्ड् हि वान्स् अन् आफ् स्प्रिङ्ग् प्रजाकामः सः अप्रजः अत्र छाप्रजः अस्ति किल च प्लस् अप्रजः अप्रजः वन् विदौट् अ चैल्ड् इत्यस्मात् सः प्रजाकामः स्पष्टं वा
What
is the cha doing here? Is that your question?
No, not cha. Sir. Prajakamah.
Saha, saha.
Saha. Sandhikaranena tatra. Lop visarga.
Oh, okay.
And why is the cha there? Cha aprajah.
Saha. Prajakamah. Saha shuraha. And also aprajah.
And. Okay. Cha is and.
So praja means we usually say for the people under who
praja
satyam tadapi asti saha ardha api asti किन्तु सामान्यतया प्रजा नाम प्रजा नाम ऑफस्प्रिंग इति एव अर्थः.
I mean, that one is praja or prajai.
The people of the kingdom supposed to be his children, right?
Okay.
Spashtam veta vata?
Yeah, spashtam.
Ananta. Kaha karoti? Shankar Mahade karoti va?
Saha prajartai.
Prajartai.
Prajartai. प्रजाते परम यत्नम अकरोत् सुस्माहितः तमभ्यगच्छद् ब्रह्मधर्मनो नाम भारत.
दमनो नाम भारत. दमनो प्रजार्थे परम यत्नम अकरोत् सुसमाहितः तमभ्युगच्छत् तमभ्यगच्छत् ब्रह्मर्षिर् दमनो नाम भारत. पदच्छेदं करोतु आदौ.
अकरोत् आई थिंक
सत्यं
क्रियापदम्
अकरोत् क्रियापदं. कः अकरोत्? कः अकरोत्?
भीमः.
भीमः नाम इति एव किल. सः अकरोत्. सः किम् अकरोत्?
प्रजार्थे परम्
एकमेव पदं. किं सः किम् अकरोत्?
यत्नम् अकरोत्.
यत्नं. यत्नं नाम प्रयत्नः इति अर्थः. प्रयत्नः. सः प्रयत्नं यत्नम् अकरोत्. अस्तु. सः परं यत्नं. परमत्र विशेषणपदम् अस्ति. इट् इस् विशेषणं टु यत्नः. परं नाम पूर्वं दृष्टं. परं पदस्य अर्थः कः? परनिर्वृतये इत्यत्र दृष्टं किल पूर्वं. परस्य अर्थः एक्स्ट्रीम्. परं यत्नम् अकरोत्. किमर्थं? प्रजार्थे प्रजायै प्रजायै पुत्राय पुत्राय परं यत्नम् अकरोत्. सः सुसमाहितः. सुसमाहितः नाम कः अर्थः अत्र? वित् ग्रेट् यु नो कथं वक्तव्यं? हेङ्ग् ऐ केन् ट्रान्स्लेट् दिस् वर्ड्स् वेल्.
इस् इट् कलेक्टिङ्ग् समथिङ्ग्?
No, 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 no.
Dedication, something like that. Lot of dedication.
Composed.
Yes. Something like that. Yes.
Very intense.
Very intense. Yes. Adrishah saha, Usamahitah saha, Prajarthe, Param Yattam Akarot. Ida vakya spashtam?
प्रजार्थे चतुर्थी विभक्ति.
कथं चतुर्थी?
प्रजार्थे
कथं चतुर्थी? तत्र
अर्थे अर्थे चतुर्थी. फॉर फॉर अ चाइल्ड. सो
चतुर्थी प्रजार्थे चतुर्थी विभक्तिः नास्ति. चतुर्थी अर्थे एव. चतुर्थी अर्थे अस्ति.
अत्र प्रजार्थे कः विभक्तिः?
का विभक्तिः? तत्र अर्थः नाम तत्र कः अर्थः? अत्र न अर्थः नाम अत्र रीजन् इति वदामः किल, सः अर्थः अत्र. वाट् इस् द रीजन् फार् हिस् यत्नम्? प्रजार्थे तादृश अर्थः अस्ति अत्र. तदर्थे चतुर्थी इति अस्ति. तदनन्तरं पश्यामः. आदौ इदं कुर्मः, तदनन्तरं पश्यामः. एकनिमिषं.
यदा अन्वयं लिखति तत्र
किमर्थं यत्नम् अकरोत् प्रजार्थे?
किमर्थं like you know what is the
विभक्ति we give for this word? You can say kutra. Actually kutra vartum shakyate atra kutra. kutra yatnam akarot, where did he put a lot of effort into prajarthe?
So it's a seventh vibhakti.
Seventh.
Sapta.
Yes.
Prajarthe as a single word, now this is in seventh vibhakti, seventh case. Pumlinga padam va?
Pumlinga padam eva, arthaha, satyam.
Or maybe it is the halanta prajartha consonant, so it changes
into prajartha. Artha nasti, sadrisham padam nasti, artha.
Pajala koraku.
What? Someone said something, I didn't know what that
means. I'm sorry, like, that's me. I thought like I'm talking to myself. Pajala koraku.
Actually, you know what? Hang on. It cannot be saptamita. Arthe atra avyayam asti, kshamyatam. Prajarthe atra avyayam asti. Kimartham yatnam akarot avyayam asti atra, kshamyatam. Prajarthe atra avyayam asti. Arthe atra avyayam asti. Saptamina asti, kshamyatam. Mama doshaha. Prajarthe. Astu. Arthe atra avyayam asti. Par praja. Ityasmine arthe asti, kintu atra avyayam asti. Prajarthe iti avyapadam atra. Kimartham yatnam akarot, prajarthe yatram akarot, arthe iti avyayi padamasti atra.
Asthumur.
Tat dvitiye vakye tatra kriyapadam kutra asti?
Gachad.
Uttamam, kintu tatra upasargah api asti tatra.
Agachya.
Abhyagachad.
Abhyagachati padamasti satyam satyam abhyagachati padamasti kahardah tatra abhigachati lati kim rupam satsyat abhigachati
lat prathama ekavacham
lat prathama ekavacham eva satyam 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 abhigachati tam abhigachat kah tam namatra bhimam abhyagachat Kaha abhyagachat brahmarshihi. Brahmarshehe namakim damanaha. Damanaha nama brahmarshihi. Tam bhimam abhyagachat. Nama approach. Upagachati abhigachati sahevartaha. Acharyam upagamme chastikila. Gita yam dhitiye shloke. Abhigachati upagachati. Nama tasya samibam gachati. Abhigachati. Spashtam Vedavata Atra Tam Idam Kila Padamatra Tam Yabhyagachat Iti Padamatra So Tam Plus Abhya
Chati
Gachat Abhyagachat Iti Asti Tata lang rupam asti kila abhyagachati iti. Tad janati kila sarve? Santi va nama? Sarve santi kila? Abhyagachata asti. Atra abhi upasargaha asti kila. Abhi plus
agachata.
Lati rupam kim bhavati? Abhi gachati iti bhavati. Ila atal lang laka prathama prathama purusha ekvachana rupam asti abhyagachat nama approach iti arthaha to go whom did he approach tam namakam bhimam because we are talking about bhima here right all along tam nama bhimam abhyagachat kaha abhyagachat brahmarshihi Brahmarshehe namakim Damana. He Bharata Brahmarshihi Damanaha Bhimam Abhyagachat. Pashtamba?
Yeah, but I didn't get that. What does Bharata mean finally?
Addressing. Someone is telling a story here.
Okay. Okay, so the Brahmarshi name is
Damanaha.
Damanaha. Okay.
Hey Bharata, hey Yudhishthira, ब्रह्मर्षि दमन भीम अभ्यगछत सारांश
भीमस्य प्रयत्नम् द्वितीयं ब्रह्मर्षिः भीमम् अभ्यगच्छति इति
सत्यं 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 अत्र द्वे
वाक्ये अस्ति वन् इस् ट्रैयिङ्ग् फार् द आफ्स्प्रिङ्ग् वैल् द अदर् कर्ता इस् अप्रोचिङ्ग् हिम् हौ डस् इट् फिट् इन् हियर्
नो 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 दट् इस् मीन्स् यु नो हि हस् बीन् डूयिङ्ग् आल् दिस् यु नो हि हस् बीन् डूयिङ्ग् आल् दिस् एफर्ट्स् ओके एट् द सेम् टैम् आर् अराउण्ड् द सेम् टैम् ओ युधिष्ठिर दमनः ब्रह्मर्षिः केम् टु हिम् इति अर्थः
ओ यथा सः प्रयत्नं करोत् तथा ब्रह्मर्षि दमनः तत्र आगच्छत् अभ्यगच्छति
सत्यं सत्यं तथा He's telling the story here, right? Someone is saying the story here. So he's saying, hey, Bharata, you know, just like Nala actually was in Nishadha Rajyam, in Vidarbha, we have Bhima. He was childless. You know, he was describing all his qualities. He also said that, you know, for offspring, you know, he was making all these efforts. And around the same time, it so happened that, you know, Damanaha Nama Brahmarshihi Tam Abhyagachatu.
So where is this word Bharata here?
Bharata.
So anybody can be addressed as Bharata?
In this context, it means Yudhishthira. Because this is coming from Mahabharatam. Okay. Oh. In this context, you need to know the previous, what happened previously as well. So yeah, some Rishi is saying the story to Yudhishthira.
So,
what happens actually in Mahabharata when they're doing the Vanavasam there, right? Rishi comes to Yudhishthira and says, you're not the only one who is going through all this. Every person, okay, who religiously followed Dharma went through this at some point. You're not alone. And he starts explaining the story. You know what happened at so-and-so time. And you know, he starts explaining the story of Nala to Yudhishthira.
So I understood the second part, Mahodaya. The previous line, Prajarte Param Yatnam, that Prajarte means childless, huh?
No, no. For offspring, okay. For a child, Saha Bhimaha
Param. Prajarte is Chaturthi Vibhakti.
No, that's an abhyam we said, right? We said it's an abhyam. Yes,
oh,
it's
sorry, abhyam. Sorry.
But it's in the artha of Chaturthi only. Yes.
And param will be...
It's a visheshanam to yatnam. Param yatnam akarot.
Astu mahoda.
Astu? Astu. Atra tarihadja atra samapayama. एते श्लोकः तत्र ड्रैव् मध्ये आरोपिताः सन्ति कृपया कुर्वन्तु ओके ट्रै इट् फार् दि सेवेन्त् अण्ड् एय्त् श्लोकास्
अस्तु
समापय मध्ये प्रश्नाः सन्ति चेत् पृच्छन्तु